ऐं ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरणमयीं लक्ष्मीं जातवेदो महावहा ऐं ॐ ॐ ह्रीं तां महावह जातवेदो लक्ष्मीं मनवगामिनीं यस्यां हिरण्यं विन्देयङ्गामश्वं पुरुषानहं ह्रीं ॐ ॐ श्रीं अश्वपूर्वां रथमद्यां हस्तिनादप्रबोधिनीं श्रियं देवीमुपहुवये श्रीरमा देवी च सदां श्रीं ॐ ॐ क्लीं कांसोऽस्मितां हिरण्यप्राकारामार्द्राञ्ज्वलन्तीं तृप्तान्तर्पयन्तीं पद्मे स्थितां पद्मवर्णान्तामिहोपहुवये श्रियं क्लीं ॐ ॐ वद वद ॐ चन्द्रां प्रभासां यशदाज्ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वां ऋणे वद वद ॐ ॐ वाग्वादिनी आदित्यवर्णे तपसोति जातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः वाग्वादिनी ॐ ॐ ऐं उपैतुमान् देवसखकीर्तिश्च मणिना सह प्रादुर्भूतोऽसराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ऐं ॐ ॐ सौः चित्पिपासामलां ज्येष्ठां लक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वानृणुदमे गृहात् सौः ॐ ॐ हंसः गन्धद्वारान्दुराधर्शान् नित्यपुष्टाङ्गरीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपहुवये श्रियं सोऽहम् ॐ ॐ आं मनसः काममाकोतिं वाचः सत्यमशीमहि पशूनां रूपमन्यस्य मयि श्रीश्रयतां यशः आम् ॐ ॐ ह्रीं करदमेन प्रजाभूता मयि सम्भव करदमा श्रियं वासे मे कुले मातरं पद्ममालिनीं ह्रीं ॐ ॐ क्रौं आपसृजन्तु स्निग्धानि चिक्लीतव समे गृहे निच देवीं मातरं श्रियं वासय मे कुले क्रौं ॐ ॐ क्लीं आर्द्रां पुष्करिणीं पुष्टिं मिङ्गलां पद्ममालिनीं चन्द्रां हिरणमयीं लक्ष्मीं जातवेदो महावहा क्लीं ॐ ॐ श्रीं आर्द्रां यः करिणीयष्टिं सुवर्णां हेममालिनीं सूर्यां हिरणमयीं लक्ष्मीं जातवेदो महावहा श्रीं ॐ ॐ हुं तां महावह जातवेदो लक्ष्मीमनवगामिनीं यस्यां हिरण्यं विन्देयङ्गामश्वं पुरुषानहं हुं ॐ ॐ स्वाहा यशुचिः प्रयदो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पञ्चदशर्चं च श्रीकामस्तदनं जपेत स्वाहा ॐ